गीता साधक संजीवनी पांचवा अध्याय श्लोक 1 से 10 तक।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
ओम श्री परमात्मने नमः। वसपंचमोऽध्याय अर्जुन उवाच सन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि यत् श्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्। श्री भगवान उवाच सन्यासः कर्मयोगस्य निःश्रेयसकरावभौ तयोस्तु कर्म सन्न्यासात् कर्मयोगो विशिष्यते। ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न कांक्षति निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमोच्यते। सांख्ययोगौ पृथक् बाला प्रबलान्ते न पण्डिता एकमाप्यास्थितः सम्यक् उभयोर्विन्दते फलम्। यः साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति। सन्न्यासस्तु महाबाहो दुःखमात्मयोगतः योगयुक्तो मुनिब्रह्मा न चिरेणाधिगच्छति। योगयुक्तो विशुद्धात्मा विदितात्मा जितेन्द्रिय सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते नैव किञ्चित् करोमीति योक्तो मन्येत तत्त्ववे। पश्य शृण्वन् स्पृशेजिघ्नं नाश्नन् गच्छन् स्वपैश्वसन् कल्पान्विश्रीगन्धन् नुन्मिषन्निमिषन्नपि इन्द्रियाणीन्द्रियार्थेषु वर्तान्त इति धारयन् ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य लिप्यते न स पापेन पद्मपत्यमिवम्बसा। ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य लिप्यते न स पापेन पद्मपत्यमिवम्बसा।
वसुदेव